नमस्सर्वेभ्यः अद्य कोविड वर्गस्य सप्तदशः पाठः मे मासस्य चतुर्विंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो समासप्रकरणे कर्मधारय समासस्य प्रभेदाः गतवर्गे दृष्टाः तत्र समासः प्राधान्येन चतुर्विधः तत्पुरुषः बहुव्रीहिः द्वन्द्वः अव्ययीभावः इति तत्पुरुषसमासे पुनः सामान्यतत्पुरुषः कर्मधारयः द्विगुः नञ् प्रभृतयः इति चत्वारः भेदाः सन्ति सामान्यतत्पुरुषे प्रथमा द्वितीया तृतीया इत्यादि समासाः ज्ञाताः कर्मधारयसमासे नवप्रभेदाः भवन्ति विशेषणपूर्वपदकर्मधारयः प्रधानः कर्मधारयः अयमेव यत्र पूर्वपदं विशेषणं भवति उत्तरपदं विशेष्यं भवति नीलः मेघः नीलमेघः इति उदाहरणम् विशेषण उत्तरपदकर्मधारयः केषुचित् विशिष्टप्रयोगेषु विशेषणम् उत्तरपदं भवति तत्र सामान्यतः तद्विशेषणं निन्दावाचकं वा स्तुतिवाचकं वा भवति इट् इस् अ रेर् समास कम्पेर् टु द विशेषणपूर्वपद सो विशेषणपूर्वपद इस् द नार्मल् केस् कदाचित् अपवादत्वेन विशेषणम् उत्तरपदं भवति विशेषण उभयपदकर्मधारयः पदद्वयमपि विशेषणं भवति एकस्यैव विशेषणं कृतं च तदकृतं च कृताकृतम् अस्य अपरमपि उदाहरणं रघुवंशवर्गे अस्माभिः दृष्टं पीतप्रतिबद्धवत्सः पीतश्च पूर्वं पीतः पश्चात् प्रतिबद्धः इति एतादृशाः समासाः विशेषण उभयपदकर्मधारयसमासाः इति कथ्यन्ते उपमानपूर्वपदकर्मधारये पूर्वपदम् उपमानवाचकं भवति उत्तरपदं साधारणधर्मवाचकं भवति कुसुमम् इव कोमलं कुसुमकोमलं तत्र कुसुमम् उपमानं कोमलत्वं साधारणधर्मः उपमान उत्तरपदकर्मधारये तु उत्तरपदम् उपमानं भवति पूर्वपदम् उपमेयवाचकं भवति नरः व्याघ्रः इव नरव्याघ्रः इत्यादि तत्र सामान्यतः उत्तरपदं श्रेष्ठत्वबोधकं भवति बहुषु अन्यदपि अस्ति किन्तु सामान्यतः तथा भवति सम्भावनापूर्वपदकर्मधारये पूर्वपदं संज्ञावाचकं नामधेयं भवति सो द फस्ट् पूर्वपद इस् द नेम् आफ् द उत्तरपद Okay, it's a specific case. It's a proper noun, whereas the Uttarapada is a common noun. Ganga iti nadi, Ganga nadi. Avadharana purvapada karmadharaye. Avadharana bhavati. Purvapadam avadharana vachakam. So it represents a type of Uttarapada. So dhanam, vidya eva dhanam. Vidya rupam dhanam, vidya dhanam ityuchyate. मध्यमपदलोपः इति कश्चित् समासः यत्र पूर्वपदं समस्तपदं भवति तत्र कस्यचित् भागस्य लोपः भवति अर्थम् आश्रित्य शाकप्रियः पार्थिवः शाकप्रियः इति विशेषणं पार्थिवः इति विशेष्यम् अतः वस्तुतः विशेषणपूर्वपदकर्मधारयः तत्र पूर्वपदे कस्यचित् भागस्य लोपः क्रियते शाकपार्थिवः इति प्रयोगः अयं समासः प्रयोगम् आश्रित्य एव ज्ञातव्यः सर्वत्र एतादृशेषु लोपः भवति इति नास्ति यत्र तादृशाः प्रयोगाः सन्ति तत्र अर्थबोधार्थम् एक्चुलि इट् इस् द रिवर्स् समस्तपदं भवति तस्य अर्थबोधार्थम् अस्माभिः किञ्चित् पदं योज्यते विग्रहवाक्ये मयूरव्यंसकादिः इति अपरः समासः अस्ति सो इट् इस् अ मिसलेनियस् क्लास् आफ् वर्ड्स् सो तत्पुरुषसमासस् विच् डु नाट् बिलाङ्ग् टु एनी अदर् केटगरी आर् कलेक्टेड् इन् दट् क्लास् ओके सो अत्र कोविदस्तरे परीक्षार्थं षड् विधानां कर्मधारयसमासानां अध्ययनं करणीयमस्ति. ओके, अत्र किमर्थं कंसेषु एतानि पदानि इति चेत् दे आर् नाट् एक्चुलि पार्ट् आफ् द समास. दिस् इव, इति, एव इत्यादि वस्तुतः समासः कुसुमं कोमलम् इत्येतयोरेव. तत्र उपमानत्वम् अस्ति इति बोधयितुम् इव इत्यस्य प्रयोगः. एवमेव गङ्गा नदी, यथा नीलः मेघः एवं गङ्गा नदी इत्येव विग्रहः. तत्र गङ्गा इत्येषः सम्भावनावाचकः इति बोधयितुम् इति शब्दस्य प्रयोगः. एवम् अवधारणार्थं बोधयितुम् अत्र एव. सो दीस् वर्ड्स् आर् नाट् पार्ट् आफ् द समास, दे आर् जस्ट् देर् टु ब्रिङ्ग् औट् द मीनिङ्ग् आफ् द समास. अत्र गृहकार्यं समस्तपदं लेखनीयं, विग्रहवाक्यं दीयते. ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु. उमादेवी भगिनी.
नमस्ते भगिनी.
हा,
कृष्णफलकं विशेषणपूर्वपदकर्मधारय समासः.
सम्यक्. कृष्णं फलकं, तत्र कृष्णम् इति विशेषणं, फलकम् इति विशेष्यम्. अतः विशेषणपूर्वपदकर्मधारयः कृष्णफलकम् इति. अग्रिमम्.
भारतम् इति देशः, भारतदेशः सम्भावनपूर्वपदकर्मधारय समासः.
सम्यक्. भारतम् इति देशः, भारतदेशः सम्भावना, भारतम् इति देशस्य नाम, अतः सम्भावना पूर्वपदकर्मधारयः. अग्रिमम्. सुजाता भगिनी.
यशः एव भूषणम्, यशो भूषणम्.
सम्यक्. यशोभूषणम्
अवधारणा पूर्वपद कर्मधारय.
सम्यक्. यशः एव भूषणम्, भूषणं नाम अलङ्कारः. यशः कीर्तिः, सो फेम् इट्सेल्फ् इस् द अडान्मेण्ट्. तत्र यशोभूषणम् अवधारणापूर्वपदकर्मधारयः. नयने इन्दीवरे इव.
प्रयत्नं करोमि, किञ्चित् कष्टं भवति. नयन इन्दीवर प्रातिपदिकं, नयनीन्दीवर
वरे. सम्यक्. नयनेन्दीवरे गुणसन्धिः. उपमान उत्तरपदं, तत्र इति पुष्पस्य नाम, अतः उपमानत्वेन उपयुक्तम्. उपमान उत्तरपद. सम्यक्. गगनम् इव विशालम्. गगनविशालं प्रभेदः.
पूर्वपद उपमान,
उपमान पूर्वपद गगनविशालं. विशालम् इति साधारणधर्मः, गगनम् आकाशः, उपमानम्. फलप्रधानाः वृक्षाः.
फलप्रधानवृक्षाः,
तत्र लोपः क्रियते चेत्
फलवृक्षाः.
फलवृक्षाः
मध्यमपदलोपी
कर्मधारयः. तर्हि वयं सामान्यतः प्रयोगं कुर्मः फलवृक्षाः इत्युक्ते किम्, अन्यत् किमपि न भवति वा? सर्वेषु वृक्षेषु पर्णानि भवन्ति, फलानि भवन्ति, पुष्पाणि भवन्ति, किन्तु येषु फलं प्रधानं भवन्ति ते फलवृक्षाः, येषु तु छायाप्रधानं भवन्ति ते छायावृक्षाः, छायातरवः, येषु पुष्पं प्रधानं भवति ते पुष्पवृक्षाः इति भेदः. तत्र प्राधान्यं कस्य भागस्य इत्येव. अतः फलवृक्षाः इति मध्यमपदलोपि कर्मधारयः. अत्र नयनेन्दीवरः इति न वा इति. तत्र नयने इति द्विवचने अस्ति, नयनं नयने नयनानि, नेत्रे नेत्रद्वयम् इति. अतः अत्र अस्मिन् समासे पूर्वपदस्य प्राधान्यं, नेत्रद्वयम् अस्ति अतः द्विवचनं भवति नयनेन्दीवरे इति. अग्रिमं सुधा भगिनी.
तुष्यन्ति प्रजाः, तुष्यत् प्रजाः
सम्यक्. आम्, तुष्यन्त्यः प्रजाः, तत्र स्त्रीलिङ्गस्य पुल्लिङ्गवद्रूपं भवति तुष्यत् प्रजाः इति विशेषणपूर्वपदकर्मधारयः.
मन मर्कट मर्कटः इव, मनमर्कटः उपमान उत्तरपद,
उपमान उत्तरपद कर्मधारयः. मनस् मर्कट, तत्र मनस् इति सकारान्तं, मनः मर्कट, सन्धिः क्रियते चेत् मनोमर्कटः इति भवति. यत्र सकारान्तं पूर्वपदं भवति तत्र सन्धिः भवति मनोमर्कटः. सम्यक्. मर्कटः इत्युक्ते वानरः इत्यर्थः. सुब्रह्मण्यं महोदय
नमस्ते. क्रोधाग्निः अवधारणापूर्वपदकर्मधारयसमासम्.
सम्यक्. क्रोधाग्निः, क्रोध अग्नि सवर्णदीर्घसन्धिः, क्रोधाग्निः इति अवधारणापूर्वपदकर्मधारयः. जलधिः इव गम्भीरः.
जलधिगम्भीरः उपमानपूर्वपदकर्मधारयसमासम्.
सम्यक्. जलधिगम्भीरः उपमानपूर्वपदकर्मधारयः. जलधिः समुद्रः, समुद्रः इव गम्भीरः. गम्भीरः डीप् इत्यर्थः. यथा समुद्रः अत्यन्तं गम्भीरः तथा इति. अग्रे रामनाथन् महोदय.
रघुवंशम् इति काव्यं, रघुवंशकाव्यं पूर्वपदं, विशेषपूर्वपदं वा?
पूर्वपदं किम् अत्र काव्यस्य?
रघुवंशं पूर्वपदम्.
आ, तत् कीदृशं? वाट् इस् रघुवंश?
महाकाव्यम्.
इट् इस् द नेम् आफ् द
काव्यम्.
अतः सम्भावनापूर्वपदकर्मधारय, रघुवंशकाव्यम् इति सम्भावनापूर्वपदम्. घृतपूर्णः घटः.
घृतपूर्णघटः
लोपः क्रियते चेत्
घृतघटः.
घृतघटः मध्यमपदलोपे, मध्यमपदलोपे वस्तुतः विग्रहं दृष्ट्वा समस्तपदस्य लेखनं किञ्चित् कष्टमेव. यतोहि घृतपूर्णघटः इत्यपि भवितुमर्हति, किन्तु यत्र घृतघटः इति प्रयोगः तस्य अर्थः घृतेन पूर्णः, घृतपूर्णः घटः इति. अतः तत्र मध्यमपदलोपी कर्मधारयः. अग्रे समासः दीयते, तस्य विग्रहवाक्यं वक्तव्यम्. राधा भगिनी.
शिरीष मृद्वी. शिरीषम् इव मृद्वी उपमानपूर्वपदकर्मधारय.
सम्यक्. शिरीषम् इव मृद्वी. शिरीषम् इति पुष्पं, सो इट्स् अ वेरि साफ्ट् फ्लावर्.
एकशतम्, एकाधिकं शतं, मध्यमपदलोपि.
एकाधिकं शतम्, एकशतं मध्यमपदलोपि कर्मधारयः. सो यदा 101 इति अर्थः अभिप्रेतः तदा एकाधिकं शतम् इति विग्रहः भवति. प्रिया भगिनी.
पटिक शुभ्रम्. पटिकम् इव शुभ्रम् उपमानपूर्वपदकर्मधारय.
स्फटिकम् इव शुभ्रम् उपमानं. स्फटिकं तत्र उपमानं, क्रिस्टल् क्लियर् इति आङ्ग्लभाषया यदुच्यते तदेव स्फटिकम् इत्युक्ते क्रिस्टल्. कोदण्डरामः
कोदण्डधृतः रामः मध्यमपदलोपी कर्मधारय
कोदण्डधरः रामः कोदण्डरामः यः कोदण्डं धरति सः कोदण्डधरः मध्यमपदलोपी कर्मधारयः नृसोमः महालक्ष्मी
नरः सोमः इव उपमान उत्तरपद
उपमान उत्तरपदः सोमः चन्द्रः तदेव उपमानं तत्र नृ इत्यस्य प्रथमाविभक्तौ एकवचनं किं भवति नरः इति अकारान्तशब्दस्य नर इति भवति नृ पितृ इत्यस्य प्रथमाविभक्तौ किं भवति एवं नृ इत्यस्य ना ना सोमः इव नृसोमः अर्थः समानः नृ शब्दस्य ना इत्यस्य नरः इत्यस्य किन्तु प्रातिपदिकम् अत्र नृ इत्यस्ति अतः ना सोमः इव नृसोमः नरश्रेष्ठः इत्यर्थः
महामहोपाध्यायः महान् महोपाध्यायः विशेषणपूर्वपदं कर्मधारय
सम्यक् सम्यक् महान् महोपाध्यायः वस्तुतः महोपाध्यायः इत्यत्र पुनः तदेव महान् उपाध्यायः महोपाध्यायः महान् महोपाध्यायः महामहोपाध्यायः इति विशेषणपूर्वपदकर्मधारयः दिस् इस् अ टैटल् एक्चुलि इट् इस् गिवन् टु एक्स्ट्रीम्लि वेटरन् स्कालर्स् अद्यापि दीयते अद्य तु सर्वकारेण दीयते पूर्वकाले अपि आसीत् यथा मल्लिनाथस्य महामहोपाध्यायः इत्युच्यते कैयटः महामहोपाध्यायः इति सो ये अत्यन्तं श्रेष्ठाः विद्वांसः अध्यापकाश्च अध्यापयन्ति तेषां महामहोपाध्यायः इति गौरवसूचकं नामधेयं दीयते ओके सो इट्स् अ टैटल् एषु दिनेषु तु सर्वकारेण इव दीयते इट्स् अन् अवार्ड् गिवन् टु संस्कृत् स्कालर्स् नृ इत्येतत् न इति कथं भवति इति चेत् यथा पितृ इति ऋकारान्तशब्दस्य पिता पितरौ पितरः धातृ इत्यस्ति चेत् धाता धातारौ धातारः एवं नृ इत्यस्य ना नरौ नरः इति रूपं सः ऋकारान्तः शब्दः पितृशब्दवत् भवति सामान्येन एकत्र भेदः किन्तु मोस्ट्ली इट् इस् लैक् पितृशब्द पिता पितरौ पितरः एवं ना नरौ नरः इत्यादि अग्रे रामायणमहानदी जयश्री
रामायणमहानदी महानदी इव रामायणम् उपमान उत्तरपद कर्मधारय
तदपि वक्तुं शक्यते किन्तु प्रसिद्धः श्लोकः अस्ति पुना तु भुवनं पुण्या रामायणमहानदी इति तत्र वस्तुतः रूपकम् एव रामायणम् एव महानदी लेट् द रिवर् द रामायण इट् सेल्फ् इस् अ ग्रेट् रिवर् लेट् इट् प्यूरिफै किं वाल्मीकिगिरिसम्भूता रामसागरगामिनी पुनातु भुवनं पुण्या रामायण महानदी वाल्मीकिः वाल्मीकिरूपात् पर्वतात् सञ्जाता रामरूपं सागरं गच्छन्ती रामायणरूपा महानदी भुवनं पुनातु इति अतः रामायणमेव महानदी अवधारणा पूर्वम् देहलीनगरं
देहलीनगरं देहली इति नगरं सम्भावना पूर्वपदकर्मधारय
सम्यक् देहली इति नगरं देहलीनगरं सम्भावना पूर्वपद कर्मधारयः ज्वलदग्निः
ज्वलत् अग्निः विशेषणपूर्वपद कर्मधारय समासः
अग्निशब्दस्य किं लिङ्गम् अग्निः इति पुल्लिङ्गं
पुल्लिङ्गं ज्वलत्
ज्वलत् इत्यस्य पुल्लिङ्गे
ज्वलत्
ज्वलत्ति प्रातिपदिकम् यथा पठन् पठन्तौ पठन्तः
ज्वलन्
ज्वलन् ज्वलन् अग्निः ज्वलदग्निः
ज्वलन्
पुल्लिङ्गे ज्वलन् इति भवति विशेषणपूर्वपदकर्मधारयः राजेन्दुः
राजा इन्दुः इव उपमान उत्तरपद
सम्यक् राजा इन्दुः इव राजेन्दुः उपमान उत्तरपदकर्मधारयः राज आचार्य
नमस्ते महोदय प्रयत्नं करोमि
आम् निश्चयेन
मर्कटश्यामा मर्कटम् इव श्यामा सा उपमान पूर्वपदकर्मधारय समासः
सम्यक् मरकतम् इव श्यामा मरकतश्यामा मरकतम् इति मणिः नवरत्नेषु अन्यतमः सो इट् इस् अ डार्क् स्टोन् सो माता मरकतश्यामा मातङ्गी मदशालिनी इति श्लोकः अस्ति चेतोभृङ्गः
चेतोभृङ्गः चेताः भृङ्गः विशेषणपूर्वपदकर्मधारय समासः
तत्र चेतः इत्युक्ते
चेतः इस् लैक् इण्टेलिजेण्ट् इस् हौ ऐ टुक् इट् इण्टेलिजेण्ट् चेतस्
चेतः इस् द मैण्ड् आर् द इण्टेलेक्ट् भृङ्ग
इस् लैक् ए बी आर्
बी ओके सो वेन् यु हाव् इण्टेलिजेन्स् इट् सेल्फ् इस् अ बी दट् इस् दर्शन अतः चेतः
एव भृङ्गः
चेतो भृङ्गः It's not a direct visheshan, as in it does not talk about a quality. So it is chetaha. The mind itself is like a bee. This is again a very famous shloka of Shankaracharya. Cheto bhranga bhramasi vritha bhava marubhumau virasayam. Bhaja bhaja lakshmi narasimha naga parasarasija makarandam. Iti cheto bhranga iti मनः सम्बोधयन्ति आचार्याः से ओ बी द इण्टेलिजेन्स् इट् सेल्फ् इस् ए बी वृथा भ्रमसि भव मरुभूमौ संसारः एव मरुभूमिः सो द वर्ल्ड् इस् लैक् अ डेसर्ट् एण्ड् यु आर् वेस्ट्फुलि रोमिङ्ग् अराउण्ड् हियर् इति चेतो भृङ्ग इति तत्र दृश्यते चेतः एव भृङ्गः चेतो भृङ्गः अवधारणापूर्वपद कर्मधारयः अत्र पश्य पद प्रश्नद्वयं नरः इति बहुवचनं वा इति नृ शब्दस्य रूपाणि चेत् ना नरौ नरः इति बहुवचनं नर शब्दस्य चेत् नरः नरौ नराः नरः इति एकवचनम् अतः नरः इति उभयं भवितुम् अर्हति एकवचनान्तमपि बहुवचनान्तमपि तत्र प्रसङ्गमाश्रित्य किं वचनम् इति निर्णेतव्यम् मरकता इति न भवति वा उत्तरपदस्य लिङ्गमनुसृत्य न तत्र उपमानं यत्र भवति उपमानस्य यत् लिङ्गं तदेव लिङ्गं यथा इन्दुः इत्युक्ते सः चन्द्रः पुल्लिङ्गे एव इन्दुशब्दः मरकतम् इति नपुंसकलिङ्गे एव यत्र विशेषणमस्ति विशेषणपूर्वपदकर्मधारये तदा विशेषणस्य विशेष्यस्य समानाधिकरण्यं भवति यत्र तु उपमानम् उपमेयः भवति तत्र यत् लिङ्गम् उपमानस्य तदेव प्रयोक्तव्यं भवति महानदी इत्यत्र अपि समासः अस्ति वा सत्यं महती नदी महानदी इति विशेषणपूर्वपदकर्मधारयः भवति महती नदी महानदी इति भृङ्गः इत्यस्य अन्यः कोऽपि अर्थः अस्ति वा न ज्ञायते मया यावद् ज्ञायते भृङ्गशब्दस्य मधुकरः इत्येव अर्थः द बी इस् काल्ड् भृङ्ग कोदण्डहस्ते रामः इति शुद्धं वा कोदण्डहस्तः रामः कोदण्डहस्तः इति रामस्य विशेषणं भवति कोदण्डधरः कोदण्डहस्तः कोदण्डपाणिः यत्किमपि वक्तुं शक्यते अर्थमाश्रित्य सो उत्तरपदलोपे क्षम्यतां मध्यमपदलोपी समासे अस्यैव पदस्य लोपः इति नास्ति अर्थानुगुणम् अन्यदपि वक्तुं शक्यते. कोदण्डप्रहरणः रामः तदपि शक्यते. कोदण्डं यस्य आयुधं भवति तदपि वक्तुं शक्यते. अग्रे गच्छामः. अग्रिमः समासप्रभेदः नञ् प्रभृतयः इति. तत्पुरुषसमासः एव. सो अयमपि एते अपि समासाः तत्पुरुषसमासे एव अन्तर्भवन्ति. तत्र पञ्च समासाः सन्ति. अन्लैक् कर्मधारय देर् इस् नो कामन् फ्याक्टर् इन् दीस्. कर्मधारयः तत्र सर्वत्रापि अस्ति. पूर्वतनप्रभेदेषु सर्वेपि कर्मधारयसमासाः एव. किन्तु अत्र नञ् प्रभृतिषु परस्परं सम्बन्धः इति कोऽपि नास्ति. सो इट् इस् जस्ट् फैव् समासस् विच् आर् क्लब्ड् टुगेदर् एस् वन्. तत्र नञ् तत्पुरुषः, न धर्मः अधर्मः इति उदाहरणं. कु समासः, कुत्सितः पुरुषः, कुपुरुषः. प्रादिसमासः, शोभनं, भाषितं, सुभाषितम्. अत्र एकैकम् उदाहरणमस्ति, सर्वेषामपि विवरणम् इदानीमेव पश्यामः. गतिसमासः, अशुक्लं शुक्लं कृत्वा, शुक्लीकृत्य. उपपदसमासः, कुम्भं करोति इति कुम्भकारः. अत्र परिवृत्तमस्ति, कुम्भं करोति इति विग्रहवाक्यं, कुम्भकारः इति समस्तपदम्. एतान् समासान् इदानीं पश्यामः. कः नियमः, कथं समासः भवति इति. प्रायेण सरलाः एव एते समासाः. नञ् तत्पुरुषः प्रथमः. तत्र नञ् इति न इति यदव्ययमस्ति तस्य व्याकरणपरिभाषायां नञ् इति कथ्यते. व्याकरणरीत्या यत्र पश्यामः तत्र नञ् इति एकमस्ति, न इति अन्यदस्ति. कश्चित् लघुभेदः अस्ति. न इति स्वीकुर्मः इदानीं. न इति पूर्वपदं भवति. उत्तरपदं यत्किमपि सुबन्तं भवितुम् अर्हति. नञ् इत्येतत् अव्ययं यत्र पूर्वपदं भवति तदेव नञ् समासः अथवा नञ् तत्पुरुषसमासः इति उच्यते. बहु प्रसिद्धः समासः, बहूनि उदाहरणानि दृश्यन्ते. न धर्मः अधर्मः, न सत्यम् असत्यम्, न आचारः अनाचारः, न अपेक्षितम् अनपेक्षितम् इति उदाहरणानि भवन्ति. नञ् तत्पुरुषे ज्ञातव्यः एकः एव अंशः, कुत्र अ भवति, कुत्र अन् भवति. अत्र पश्यन्ति चेत् अधर्मः असत्यम् इत्यस्ति. अत्र तु अन् आचारः, अन् अपेक्षितम् इत्यस्ति. अत्यन्तं सरलः नियमः. यदि हलादिः शब्दः भवति तत्र अ इति योजयामः पूर्वं. यदि अजादिः भवति तत्र अन्. अच् हल् इति सर्वे जानीयुः. अच् इत्युक्ते स्वराः, वोवेल्स्. सो इफ् द पद द वर्ड् बिगिन्स् वित् अ स्वर, we add an before it. If the word begins with a hal, that is a consonant, we add a before it. Sa eva niyamah. Yatha dharmah ityasti chet a dharmah. Karyam a karyam. Jnanam a jnanam. Vidya a vidya. Bhedah a bhedah. Iti तदेव यत्र स्वरात् एवमेव हिंसा अहिंसा इति. यत्र आदौ स्वरः भवति यथा अर्थः अन् अर्थः अनर्थः, आदिः अन् आदिः अनादिः, इच्छा अनिच्छा, ईप्सितम् अनीप्सितम्, एकम् अनेकम्, न एकम् अनेकम्. So, anekam is not one. We say it is many. Kintu arthaha tu na ekam anekam. Na aushadham anaushadham. Evam yatra uttarapadam ajadi bhavati tatra an iti bhavati. Nai eva So it is actually na itself, but it takes two forms. Okay, so haladi padam bhavati chet a iti bhavati, ajadi bhavati chet an iti bhavati. Is it similar to the concept of a and an used in English? Something similar, even though a or an do not have the negative meaning. Atra ubhayamapi negation nayaha arthaha asti. Kintu, yeah, I mean, we use an when the following thing begins with a vowel. Ataha tat samyam tu asti. इदानीं कश्चित् अभ्यासः अत्र न इत्यनेन सह समासः करणीयः ये इच्छन्ति कृपया हस्तम् उन्नयन्तु श्रीमती
अकर्म
अकर्म न कर्म अकर्म सम्यक् आश्रितः
अनाश्रितः
अनाश्रितः तत्र आ इति स्वरः अस्ति अतः अनाश्रितः न आश्रितः अनाश्रितः मोहनन् महोदय
अज्ञः
अज्ञः न ज्ञः अज्ञः ज्ञः इत्युक्ते यः ज्ञानी यः जानाति सः ज्ञः न ज्ञः अज्ञः मूर्खः इत्यर्थः
उद्वेगः अनुद्वेगः
अनुद्वेगः न उद्वेगः अनुद्वेगः सम्यक् अग्रे अरुणा भगिनी
फलाकांक्षी
न फलाकांक्षी
फलाकांक्षी
अफलाकांक्षी न सत
सत
असत न सत असत सम्यक् अविनाश वैद्य मोहन
अभिसंधाय अनभिसंधाय
अनिच्छन् एते सर्वेपि शब्दाः भगवद्गीतायाम् उपयुक्ताः इफ् यु रेकग्नैज् दिस् वन् सो अनिच्छन्नपि वार्ष्णेय इति तदित्यनभिसन्धाय नासतो विद्यते भावः अफलाकाङ्क्षिभिर्यज्ञः विधिदृष्टो युज्यते एट्सेट्रा सो तावदेव नञ् समासे यदि हलादिः अस्ति तर्हि अ यदि अजादिः अस्ति अन् इति स्मर्तव्यम् अत्र एकः प्रश्नः अस्ति तस्य उत्तरम् अन्ते ददामि बहुव्रीहिसमासस्य विषये अनन्तरं पश्यामः तत्र निस् निर् इति अत्रैव भवति वा इति न निस् निर् इति अग्रे प्रादिसमासः इति पश्यामः तत्र भवति अत्र नास्ति अत्र न इत्येव अभिसन्धाय इति तद्विषये आलोचनं कृत्वा तद्विषये तस्य अपेक्षां कृत्वा इत्यर्थः अनपेक्ष्य अनभिसन्धाय इति अग्रे कु समासः द्वितीयः नैप्रभृतिषु अयमपि सरलः कु इति अव्ययं पूर्वपदं भवति सुबन्तेन सह समासः भवति कु इति अव्ययं कुत्सार्थे अस्ति सो कु इस् एन् अव्यय विच् इण्डिकेट्स् कण्टेम्प्ट् जस्ट् लैक् न इण्डिकेट्स् नेगेशन् कु इत्यस्य निन्दार्थकत्वम् अस्ति अतः निन्दा बोध्यते कु इत्यनेन कुत्सितः पुरुषः कुपुरुषः एन् ईविल् मेन् कुत्सिता बुद्धिः कुबुद्धिः कुत्सितं कर्म कुकर्म तत्र उत्तर पदस्य लिङ्गमाश्रित्य विग्रहवाक्ये लिङ्गं भिद्यते कुत्सितः कुत्सिता कुत्सितम् इति किन्तु समासे तु सर्वत्र कु इत्येव यतोहि अव्ययमस्ति तत्र भेदः नास्ति सो कु इत्येव उपयुज्यते कुत्सितं कर्म कुकर्म इति समस्तपदस्य लिङ्गं तु उत्तरपदस्य लिङ्गं कुपुरुषः इति पुल्लिङ्गे कुबुद्धिः इति स्त्रीलिङ्गे कुकर्म इति नपुंसकलिङ्गे कर्म कर्मणि कर्माणि कुकर्म कुकर्मणि कुकर्माणि इत्येव भवति अत्रापि कश्चित् विशेषः अस्ति यथा नञ्समासे अ अन् इति भवति एवं कुसमासे कु कत् इति भवति यदि हलादिपदमस्ति तदा कु इति भवति यदि अजादिपदमस्ति तदा कत् इति भवति तस्य कु इत्येव अर्थः अतः कार्यं कु कार्यम् राष्ट्रं कु राष्ट्रम् भोजनं कु भोजनम् वृक्षः कु वृक्षः यत्र आदौ हल् अस्ति तत्र कु इत्येव भवति यत्र तु आदौ स्वरः अस्ति कुत्सितम् अन्नं कदन्नम् कु अन्नम् इति स्थिते कु इत्यस्य स्थाने कत् इति भवति तत्र जष्ट्वसन्धिः कदन्नम् कुत्सितः अश्वः कदश्वः कुत्सितः उपदेशः कदुपदेशः कुत्सितः ऋषभः कदर्षभः स्वरादिपदं भवति चेत् कत् इति भवति हलादिपदं भवति चेत् कु इति भवति इति विशेषः कु इत्युक्ते कवर्गः वा इति तत्तु व्याकरणे व्याकरणशास्त्रे अकुह विसर्जनीयानां कण्ठः इत्यत्र कु इत्युक्ते कवर्गः इत्यस्ति किन्तु एतादृशसमासे कु इत्यस्य निन्दावाचकत्वमेव अत्र कु इत्यस्य निन्दितं निन्दार्हम् इत्यर्थः कदन्नम् इत्युक्ते यदन्नं नष्टं सो यदा ह्यः रात्रौ कृतम् अद्य प्रातः सम्यक् नास्ति इत्यादि सो तादृशं कदन्नम् इत्युच्यते तत्र कु समासे केचन विशेषशब्दाः सन्ति विशेषरूपाणि कुत्रचित् दृश्यन्ते यथा कुपुरुषः कापुरुषः इत्यपि प्रयोगः अस्ति कुत्सितः पुरुषः कुपुरुषः इत्यपि अस्ति कु इत्यस्य स्थाने कापुरुषः इत्यपि प्रयोगः क्रियते एवं कवोष्णम् उष्णं कवोष्णम् अधिकम् उष्णं नास्ति बहु न्यूनम् उष्णम् अस्ति इत्यर्थे कवोष्णम् इति प्रयोगः कतृणं कुत्सितं तृणं तत्र तृणम् इति वस्तुतः हलादि अतः कुतृणम् इति भवेत् किन्तु विशिष्य कतृणं कद्रथः इति प्रयोगाः सन्ति तावदेव कुत्सितः रथः कद्रथः तृणं रथः इत्यत्र हलादित्वे अपि कत् इति श्रूयते एवमेव कापथं कुत्सितः पन्थाः कुत्सितः मार्गः इत्यर्थे कापथम् इति भवति यदि मार्गः एव अस्ति कुमार्गः कुत्सितः मार्गः कुमार्गः तस्मिन् अर्थे यत्र पथिन् शब्दः अस्ति तत्र कापथम् इति विशेषरूपाणि ज्ञातव्यानि सामान्यनियमः तु हलादि चेत् कु अजादि चेत् कत् इति भवति अन्यः कश्चित् प्रश्नः कुजलं वा कज्जलं वा इति तत्र कज्जलम् इति शब्दः अस्ति किन्तु तत्र जलस्य सम्बन्धः नास्ति कज्जलम् इस् इट् इस् वाट् द अञ्जनं नेत्रस्य यत् कृष्णवर्णस्य एतद् भवति तस्य कज्जलम् इति नाम अस्ति और् इवन् द कोक् वेन् इट् इस् कोल् वेन् इट् इस् बर्न्ट् इट् इस् काल्ड् कज्जल ओके सो कुत्सितं जलं कज्जलं न కజ్జలం ఇది పదమస్తి కింటూ కుత్సితం జలం న కుత్సితం జలం తు కుజలమేవ. అయం కు సమాసః యత్ర పూర్వపదం కు ఇతి భవతి అథవా కదాచిత్ కత్ ఇతి భవతి. తృతీయః ప్రభేదః అస్తి ఏతేషు ప్రాది సమాసః ఇత్యుచ్యతే. కః అర్థః? ప్రాదయః పూర్వపదం భవంతి, సుబంతః ఉత్తరపదం భవతి. ప్రాదయః నామ కే ఇతి ప్రశ్నః. ప్రాదయః ఇతి ద్వావింశతిః సంతి. సో దే ఆర్ మోర్ కామన్లీ నోన్ యాజ్ ఉపసర్గాస్. ఓకే, సో ప్ర పర అప సం అను అవ నిస్ నిర్ దుస్ దుర్ వి ఆంగ్ నీ అధి అపి అతి సు ఉత్ అభి ప్రతి పరి ఉప ఏతే ప్రాదయః. సో దే ఆర్ 22 words. They are actually avyayas. More commonly they are used as prefix to a dhatu. Dhatu naam upasargatvena prasiddhaha teva pradayaha yatra samase purvapadam eteshu anyatamam bhavati saha pradi samasaha iti uchyate. Udaharanani pashyamaha. ప్రగతః ఆచార్యః ప్రాచార్యః. తత్ర ప్ర ఆచార్యః, ప్ర ఇతి ప్రాదిః. శోభనం భాషితం సుభాషితం. తత్ర సమాసే పూర్వపదం ప్రాదిషు అన్యతమం భవతి. సు ఇత్యస్య అర్థః శోభనం, ఉత్తమం ఇత్యర్థః. సుభాషితం. అతి దేవః, దేవం అతిక్రాంతః, హి హు హస్ ఎక్సెల్డ్ ఈవన్ అ గాడ్, సహ అతిదేవః ఇతి కథ్యతే. విగతః అర్థాత్ వ్యర్థః, దట్ విచ్ డీవియేట్స్ ఫ్రమ్ ఎనీ పర్పస్, సో దట్ విచ్ హాస్ నో పర్పస్ ఇస్ వ్యర్థ. వి అర్థః వ్యర్థః. అభిగతః ముఖం అభిముఖః, సో ఫేసింగ్ టువర్డ్స్ ఇత్యర్థే అభిముఖ ఇతి భవతి. ఏతే సమాసాః ప్రాది సమాసాః. ఓకే, సో ప్ర ప్రగతః ఇత్యత్ర వస్తుతః ప్ర ఇత్యస్య గతః ఆచార్యః ప్రాచార్యః. ఆచార్యః పూర్వం ఆచార్యః ఆసీత్, ఇదానీం తతః అగ్రే గతః ఇత్యర్థః ప్రాచార్యః. సో హి ఇస్ సామాన్యతః ప్రాచార్య శబ్దః ప్రిన్సిపల్ అథవా ముఖ్యః యః భవతి సంస్థాయాః సః ప్రాచార్యః. పూర్వం ఆచార్యః ఆసీత్, ఇదానీం తతః అగ్రే గతః ఇత్యర్థః. యథా ప్రపితామహః, పూర్వం సః పితామహః ఆసీత్, యదా పౌత్రస్య కశ్చిత్ పుత్రః జాతః తదా ఏషః అగ్రే గతవాన్. సో హి వాజ్ అ గ్రాండ్ ఫాదర్, హి గాట్ అ ప్రమోషన్ ఇత్యర్థే ప్ర ఇతి. గతః ఇతి ప్రగతః ఇతి విగ్రహవాక్యే ఉచ్యతే. ఓకే, అత్ర ఏకః ప్రశ్నః బహుభిః పృచ్యతే, ఏతత్ సర్వమపి మధ్యమపదలోపః వా ఇతి. మధ్యమపదలోపః ఇతి న, అస్య విషయే ఇతోపి అగ్రే పశ్యామః. నిత్యసమాసాః ఇతి భవంతి. వస్తుతః అత్ర ప్ర ఆచార్యః ఇత్యనయోరేవ సమాసః. ఏవం సుభాషితం, తత్ర సు ఇత్యస్య అర్థం బోధయితుం శోభనం ఇతి అస్మాభిః ఉచ్యతే. ఏవమేవ అతి ఇత్యస్య అర్థం బోధయితుం అతిక్రాంతః ఇతి, తత్తు పృథగేవ పదం ఇత్యుచ్యతే. అతిక్రాంతః ఇత్యత్ర లోపాత్ న భవతి ఇస్ వన్ థింగ్. ద అదర్ థింగ్ ఇస్ దర్ ఇస్ నో విశేషణ విశేష్య భావ ఇన్ మెనీ కేసెస్. కదాచిత్తు భవతి, కింటు దేవం అతిక్రాంతః మధ్యమపదలోపీ కర్మధారయే తత్ర విశేషణ విశేష్య భావః భవతి. పూర్వపదం సర్వదా విశేషణం భవతి, ఉత్తరపదం విశేష్యం భవతి. అత్ర తు ఏవం న. అతిక్రాంతః దేవం, అతిక్రాంతః దేవః న. శాకప్రియః పార్థివః, घृतपूर्णः घटः तत्र सर्वत्रापि समानाधिकरण्यम् अस्ति कर्मधारय समासे अत्र समानाधिकरणं करण्यं नास्ति तत्र पूर्वपदम् अर्थबोधकमेव दीस् प्रादिसमास इस् अ नित्यसमास नित्यसमासस्य विषये अहम् अग्रे वक्ष्यामि तत्र पूर्वपदस्य अर्थं बोधयितुं किञ्चित् पदम् उपयुज्यते तावदेव अत एव अत्र अन्यदपि वक्तुं शक्यते ओके सो शोभनं भाषितम् इत्यस्य स्थाने सुष्ठु भाषितम् इत्यपि वक्तुं शक्यते उत्तमं भाषितम् इत्यपि वक्तुं शक्यते तत्र विग्रहवाक्यं केवलम् अर्थं बोधयति तत्र अन्यदपि उपयोक्तुं शक्यते इति एकः अंशः सम्यक् कृतं संस्कृतम् अत्र प्रादिः वा इति न तत्र तु उपसर्गत्वम् अस्ति यत्र एतत् संकृतं तत्र सम् इत्यस्य कृत इत्यनेन वक्तुं शक्यते प्रादिसमासः एव संस्कृतम् इत्यत्र अत्र अपरः अंशः अस्ति दिस् इस् एन् एक्सेप्शन् टु द उत्तर पदार्थ प्राधान्य सो दिस् इस् नाट् उत्तर पदार्थ प्रधान उत्तरपदस्य लिङ्गं भवेत् इति नास्ति वस्तुतः अत्र पूर्वपदस्य लिङ्गं भवति यथा अतिक्रान्तः देवम् अतिदेवः इत्यस्ति अथवा प्रगतः आचार्यः प्राचार्यः प्रगता इत्यस्ति चेत् तत्र प्राचार्या इति भवति देवम् अतिक्रान्तः देवम् अतिक्रान्ता इति स्त्रीलिङ्गम् अस्ति चेत् अतिदेवा इति भवति देवम् अतिक्रान्तम् अतिदेवं लिङ्गत्रये अपि सामान्यतः भवति व्यर्थः व्यर्था व्यर्थम् अर्थात् विगतः व्यर्थः अर्थात् विगता व्यर्था अर्थात् विगतं व्यर्थम् एवं पूर्वपदस्य लिङ्गम् आश्रित्य समस्तपदस्य लिङ्गं भवति सामान्यतः ओके सो देर् आर् टु कैण्ड्स् आफ् प्रादिसमासः वस्तुतः प्रादिसमासे इतोपि अग्रे ज्ञातव्यं बहु अस्ति प्रादिसमासस्य नियमाः बहुधा भवन्ति कदाचित् तु अत्र उभयं समानविभक्तौ भवति कदाचित् तु भिन्नभिन्नविभक्तौ भवति अस्मिन् स्तरे just make an attempt to know the common examples so agre tasya savivaranam patitum shakyate okay it is a special samasa tatpurushe api samanyatah yatha bhavati tatha na purva padasya lingam vachanam ityadikam anusarati tatra arthah api visheshtah arthah bhavanti idanim tu etani udaharanani janantu प्रादिसमासः इत्युक्ते यत्र पूर्वपदं प्रादिषु अन्यतमम् अस्ति सो यु सी अ समास वेर् यु हाव् इट् एस् अ प्रादि देन् वी हाव् इट् एस् प्रादिसमास चतुर्थः समासः गतिसमासः इति कथ्यते गतिः गतिसमासे गतिः पूर्वपदं भवति okay so all these samasas are where the samasa is named after the purvapada what is the purvapada yatra nai purvapadam bhavati saha nai samasah yatra pradihi purvapadam bhavati saha pradi samasah evam yatra gatihi purvapadam bhavati saha gati samasah iti kathyate gatihi ityapi vyakaranasya vishishta kachit samgya bhavati गतिः इति बहूनां पदानां संज्ञा अस्ति अत्र बहु प्रसिद्धानि उदाहरणानि च्वि प्रत्ययान्तानि भवन्ति च्वि इति कश्चित् प्रत्ययः अस्ति तद्धितप्रत्ययः अभूत तद्भावे च्विः इति उच्यते उदाहरणं पश्यामः चेत् ज्ञायते अशुक्लं शुक्लं कृत्वा so that which was ashukla not white so it is made white सो टु वैटन् इत्यर्थः यः अस्ति शुक्लीकृत्य तत्र शुक्ली इति च्वी प्रत्ययान्तः तस्य कृत्य इत्यनेन समासः भवति वस्तुतः कृत्वा इत्यनेन समासः भवति तत्र क्त्वा प्रत्ययस्य स्थाने ल्यप् भवति अतः शुक्लीकृत्य टु वैटन् समथिङ्ग् विच् वाज़् नाट् वैट् अस्वच्छं स्वच्छं कृत्वा स्वच्छीकृत्य सो दट् विच् वाज़् नाट् क्लीन् इस् मेड् क्लीन् सो अभूत तद्भाव यः तादृशः नासीत् सः तादृशः कृतः इत्यर्थे च्वि प्रत्ययः उपयुज्यते सो स्वच्छीकृत्य अभस्म भस्म कृत्वा भस्मीकृत्य इत्येतादृशानि उदाहरणानि गतिसमासे अन्तर्भवन्ति अगेन् दिस् इस् ओन्ली वन् पार्ट् आफ् गतिसमास बहुत्र गतिसमासः भवति प्रमुखम् उदाहरणम् एतदस्ति इदानीम् अत्र अभ्यासः विग्रहवाक्यं वक्तव्यं कानिचन समस्तपदानि सन्ति तेषां विग्रहवाक्यं वक्तव्यम् लता भगिनी
नमस्ते भगिनी असरलं सरलं कृत्वा
असरलं सरलं कृत्वा सरलीकृत्य टु सिम्प्लिफै सो दट् विच् वाज़् नाट् सिम्पल् इस् मेड् सिम्पल् सरलीकृत्य सम्यक् मोहन् महोदय स्पष्टीकृत्य
I cannot see the board now. It doesn't come.
You cannot see, yeah?
The last one, now came. Sarali. Spashti Krita. Spashti Kritya. Kritya.
Vigraha Vakyam.
Aspashtam Spashti Kritya.
Aspashtam Spashtam Kritva.
स्पष्टं
कृत्वा स्पष्टीकृत्य स्पष्टीकृत्य मीन्स् टु क्लारिफै सो दट् विच् वाज़् नाट् क्लियर् इस् मेड् क्लियर् अस्पष्टं स्पष्टं कृत्वा स्पष्टीकृत्य उष्णीकृत्य महादेवन् महोदय
अनुष्णम् उष्णं कृत्वा उष्णीकृत्य
अनुष्णम् उष्णं कृत्वा उष्णीकृत्य सो अत्र अनुष्णं न उष्णम् अनुष्णं नै समासः अनुष्णम् उष्णं कृत्वा उष्णीकृत्य रमा
अश्रेष्ठं
श्रेष्ठं
श्रेणी श्रेष्ठा श्रेष्ठा कृत्य कृत्वा
दिस् इस् नाट् फ्रम् श्रेष्ठ दिस् इस् फ्रम् श्रेणि
अश्रेणी ओ ऐ डोण्ट् नो देन् अश्रे
यु केन् जस्ट् से श्रेणिः इति पदम् सो न श्रेणिः
अश्रेणी
अश्रेणी इकारान्त सो कविम् और् हरिं सो अश्रेणिं
श्रेणिं कृत्वा
अश्रेणिं श्रेणिं कृत्वा श्रेणीकृत्य श्रेणी इस् आर्डर् सो श्रेणीकृत्य मीन्स् यु पुट् समथिङ्ग् विच् वास् डिसार्डर्ड् यु पुट् इन् टु आर्डर् okay so this is not always akaranta asmabhi bahudha akaranta nameva kriyate kintu anyesham api bhavati ashrenim shrenim kritva shrenihi is order so something which is ordered in a particular way so ashrenim shrenim kritva shreni kritya मृदूकृत्य सुधा
अमृदुम मृदुम
अमृदुम मृदुम कृत्वा मृदूकृत्य सामान्यतः अन्य अंतम अस्ति चेत् यू जस्ट इलांगेट इट सो श्रेणी बिकम्स श्रेणी मृदु बिकम्स मृदु अकारान्तानां तु ईकारान्तः भवति सो मृदूकृत्य सॉफनिंग सो यत्तु कठिनमासीत् तत् मृदूकृत्य स्वादूकृत्य विपश्चित् स्वादुं कृत्वा स्वादूकृत्य सो एडिंग टेस्ट दैट विच वाज टेस्टलेस इज मेड टेस्टी अस्वादुं स्वादुं कृत्वा स्वादूकृत्य सो एषः गतिसमासः अत्र सर्वत्र कृत्य इत्यस्ति तदेव भवेद् इति नास्ति सरलीकृतम् असरलं सरलं कृतं सरलीकृतम् इत्यपि प्रयोगः भवति ओके अत्र केचन प्रश्नाः सन्ति हा तत्र विग्रहवाक्ये सर्वमपि द्वितीया विभक्तौ भवति वा इति आम् अत्र सर्वमपि द्वितीया विभक्तौ भवति असरलं सरलं कृत्वा अस्पष्टं स्पष्टं कृत्वा इत्यादि सर्वत्र द्वितीया विभक्तिः वाट् इस् द रूल् गवर्निङ्ग् त्वा चेञ्जिङ्ग् टु ल्यप् समासे अनैपूर्वे क्त्वो ल्यप् इत्यस्ति यत्र समासः भवति तत्र शिष्यसमासः इत्युक्ते गतिसमासः एव भवति तत्र क्त्वा इत्यस्य स्थाने ल्यप् इति भवति एवम् एतदपि यद्वयम् उपसर्गः अस्ति चेत् किं क्त्वा इत्यस्य स्थाने ल्यप् इति वदामः तत्रापि अयमेव तत्र प्रादयः सन्ति प्रादीनां गतिसंज्ञा अपि अस्ति अतः गतिसमासः एव एव्रिवेर् वेर् वि से दट् क्त्वा गेट्स् ल्यप् वेन् प्रिसीडेड् बै एन् उपसर्ग इस् बिकास् आफ् द सेम् रूल् वेर् एवर् देर् इस् अ समास द क्त्वा इस् रीप्लेस्ड् बै ल्यप् Can you please repeat once again gati samasa? So gati samasa is a samasa where gati is the purva pada and any subanta is the uttara pada. But gati is a specific term in vyakarana which is given to many different particles. Okay. So one among them is the chvi. What we are seeing is a only one type of gati samasa where the chvi pratyayanta is called gati. Okay. सो च्वि प्रत्ययः अभूत तद्भावार्थे भवति सो च्वि इज यूज्ड् इन द सेन्स ऑफ मेकिंग समथिंग विच इज नॉट इनटू ऑफ दैट टाइप सो तादृशस्थले अत्र सर्वत्र गतिसमासस्य प्रसिद्धम् उदाहरणम् अत्र भवति इतोपि बहुत्र गतिसमासः भवति अनन्तरं शुड् वि केन् वि यूस् इट् इन् क्रियापदम् आमां सो अस्य वस्तुतः क्रिया तिङन्तयनापि प्रयोगः अस्ति शुक्लीकरोति सरलीकरोति शुक्ली भवति स्पष्टी भवति च्वी प्रत्ययान्तस्य सर्वैः सह तिङन्तेन अपि प्रयोगः भवति समासे तु क्त्वा ल्यप् इत्येतदेव यतोहि तिङन्तेन सह समासः न भवति So with tinganta, you can use it with tinganta, but that will not be a samasa. Sarali will be a chvi pratyayanta and you will have the karoti or bhavati, etc. Okay. So sarali karoti ityadi prayogaha kartum shakyate tatra samasaha tu nasti. Samasaha kritva kritaha ityadi kridantanam eva samasaha bhavati. Okay. अग्रे गच्छामः द लास्ट् कैण्ड् आफ् द नञ् प्रभृति समासस् इस् द उपपदसमासः बहु प्रसिद्धः. तत्र पुनः आल् दीस् आर् टेक्निकल् टर्म्स् आफ् व्याकरण, प्रादि, गति, उपपद एट्सेट्रा. सो अत्र उपपदं पूर्वपदं भवति, कृदन्तेन सह समासः भवति इति व्याकरणरीतिः. सामान्यतः विग्रहवाक्ये तिङन्तमस्ति चेत् सः उपपदसमासः इति प्राथमिकस्तरे अवगमनम्. विग्रहवाक्ये एव तिङन्तं भवति, समासे तिङन्तं न. वस्तुतः तत्र समासः कृदन्तशब्देन भवति. उपपदम् इति किञ्चित् पदं भवति, कृदन्तपदं भवति, तयोः समासः. किन्तु सामान्यतः विग्रहवाक्ये यत्र तिङन्तम् उपयुज्यते, कुम्भं करोति इति कुम्भकारः, सूत्रं धरति सूत्रधारः, धनं ददाति धनदः, पङ्के जायते पङ्कजं, पङ्कजं कमलं, पङ्क इस् स्वाम्प्. सो पङ्के जायते इति पङ्कजं, सर्वं जानाति सर्वज्ञः. सो यत्र क्रियापदं विग्रहवाक्ये श्रूयते सः उपपदसमासः इति अस्मिन् स्तरे अवगच्छन्तु. बिकास् नोयिङ्ग् उपपद अण्ड् अण्डर्स्टाण्डिङ्ग् कृदन्त रिक्वैर्स् अ बिट् आफ् द सूत्र नालेज्. ओके, सूत्रम् सूत्राधारेण एव उपपदस्य कृदन्तस्य ज्ञानं भवति. सो हियर् एक्चुलि कुम्भ इस् द उपपद अण्ड् कार इस् द कृदन्त. सो धन इस् द उपपद अण्ड् द इस् द कृदन्त. सो अयमपि नित्यसमासः इति उच्यते. इदानीं तु किं पाटर्न्, यथा मया उक्तम् अस्मिन् स्तरे इनिशियली यु शुड् लर्न् टु रेकग्नैज़् द पाटर्न्स् इन् समासस्. सो एतादृशाः समासाः उपपदसमासाः इति अधुना ज्ञायते चेत् सम्यक्. ओके, इदानीं शीघ्रम् अन्तिमः अभ्यासः. प्रसिद्धानि एव पदानि, समस्तपदं वक्तव्यं. भयं करोति,
भयं करोति भयंकर, भयंकरः,
भयंकरः, भयंकरी, भयंकरम्. अयं विशेषः उपपदसमासः लिङ्गत्रये अपि भवति. सो भयंकरः, भयंकरी, भयंकरम्. सो भयंकरः राक्षसः, भयंकरी राक्षसी, भयंकरं किमपि कथनं, भयंकरं युद्धम् इत्यादि. सो उपपदसमास क्यान् बी इन् आल् त्री लिङ्गस्, बिकास् करोति कः करोति, सः वा सा वा तत्त्व. तत्र करोति इत्यनेन लिङ्गं न ज्ञायते, किन्तु समस्तपदे लिङ्गं भवति. जलं ददाति, जयश्री भगिनि.
जलदः,
जलदा, जलदम्, त्रयमपि भवति. जलं ददाति इति जलदः, जलदा, जलदम्. जलदः इत्यस्य तु मेघः इत्यर्थः अस्ति विशेष्य, किन्तु जलदा जलदम् इत्यपि प्रयोगः कर्तुं शक्यते. अम्बुनि जायते, रामकृष्णराव महोदय.
अम्बुजः,
अम्बुजः,
अम्बुजा, अम्बुजम्.
अम्बुजः, अम्बुजा, अम्बुजम्. अम्बुजः चन्द्रः, अम्बु इत्युक्ते जलम्. सो अम्बुजः चन्द्रः, अम्बुनि जलात् जले एव सः जातः. अम्बुजा लक्ष्मीः, अम्बुजं कमलम्. एवं लिङ्गत्रये अपि भवति. भाष्यं करोति, महादेवन् महोदय.
भाष्यं करोति भाष्यकारः,
भाष्यकारी,
भाष्यकारः, भाष्यकारी,
भाष्यकारम् किमपि मित्रम्. ऐ मीन् थियोरेटिकलि यु केन् हाव् इट्. यद्यपि एतावता तु भाष्यकारः इत्येव पुल्लिङ्गे एव, यतोहि एतावता ये भाष्यकाराः ते सर्वे पुमांसः एव. तथापि पदं तु लिङ्गत्रये अपि भवति. भाष्यकृत् इत्यपि अस्ति, सर्वत्र अत्रापि भयकृत् भयकृत् भयनाशनः इत्युच्यते. अतः भयकृत् भाष्यकृत् सूत्रकृत् भयकृत् भयहृत् इत्यपि अस्ति. यत्र यत्र करोति इत्यस्ति तत्र कारः इति एकं भवति, कृत् इत्यपि भवति. सो सर्वं जयति, सो कृत् इव सर्वं जयति इत्यस्य कोऽपि जानाति वा? प्रसिद्धं पदमस्ति.
प्रयत्नं करोमि भगिनि. सर्वजयः
सर्वजयः तदेव. यथा भाष्यकृत् तथा सर्व
जयकृत् सर्व सर्व सर्वजयत्
सर्व धातुः कः जयति इत्यत्र? जी धातुः.
जित् सर्वजित्
सर्वजित् विश्वजित् इत्यादि शब्दाः सन्ति. तत्र तत्रापि उपपदसमासः सर्वं जयति इति सर्वजित्. शास्त्रं जानाति महालक्ष्मी.
शास्त्रज्ञः
शास्त्रज्ञः शास्त्रं जानाति इति शास्त्रज्ञः शास्त्रज्ञा शास्त्रज्ञम्. तत्र सर्वजित् इत्यत्रापि लिङ्गत्रयमस्ति. लिङ्गत्रये अपि समानं रूपं सर्वजित् सर्वजितौ सर्वजितः. लिङ्गभेदः नास्ति किन्तु लिङ्गत्रये अपि प्रयोगः भवति. शास्त्रज्ञः शास्त्रज्ञा शास्त्रज्ञम् इति एते सर्वेपि उपपदसमासाः. सो ऐ विल् क्विक्ली सम् अप् टुडेस्. अद्य वयं नञ् प्रभृति समासान् अधीतवन्तः. सङ्क्षेपं वदामि, अनन्तरं प्रश्नाः सन्ति चेत् उत्तरं ददामि. नञ् तत्पुरुषः यत्र न इति पूर्वपदं भवति. यदि शब्दः हलादिः अस्ति तदा अ इति श्रूयते, अधर्मः. यदि तु शब्दः अजादिः तत्र अन् इति श्रूयते, अनाचारः इत्यादि. कु समासे कु इति पूर्वपदं भवति. निन्दार्थे कु इति पदमस्ति. कुत्सितः पुरुषः कुपुरुषः. अत्रापि हलादि अस्ति चेत् कु भवति, अजादि पदं चेत् कत् इति भवति, कदन्नं कदश्वः इत्यादि. प्रादिसमासे प्रादयः नाम उपसर्गाः सामान्यतः पूर्वपदं भवन्ति. सुभाषितं सु इत्यस्य शोभनम् उत्तमम् इत्यर्थः, सुभाषितम्. गतिसमासे गतिसंज्ञकाः शब्दाः पूर्वपदं भवति. प्रसिद्धमुदाहरणं च्वि प्रत्ययस्य भवति, अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति. उपपदसमासः उपपदं पूर्वपदं भवति. तत् सामान्यतः विग्रहवाक्ये तिङन्तशब्दः श्रूयते. तादृशाः शब्दाः उपपदसमासाः भवन्ति. अभ्यासः दीयन्ते, अभ्यासं कुर्वन्तु, तदा किञ्चित् स्पष्टता भवति. ओके, सो आल् दीस् इस् अगेन् इट्स् नाट् अ कम्प्लीट् और् काम्प्रिहेन्सिव् डीलिङ्ग् वित् दीस् समासेस्. एस्पेशलि दीस् समासेस् आर् स्लैट्ली स्पेशल्. ओके, वन् इस् इन् द लिङ्ग, द अदर् वन् बीङ्ग् नित्यसमासस्. किञ्चित् अग्रे जानीमः, किञ्चित् पुनः अग्रिमस्तरेषु अपि ज्ञास्यन्ति. श्वः रघुवंशम् अनुवर्तयामः. मङ्गलम् करोमि. ये गन्तुमिच्छन्ति गन्तुमर्हन्ति. बहवः प्रश्नाः सन्ति अद्य, यथाशक्ति उत्तरं ददामि. अन्येषाम् अग्रे कदाचिदपि उत्तरं ददामि. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. विना कृत्य इस् केटगरैज्ड् एस् उपपद इन् संस्कृतभारती समास बुक्, एवं वा? विना कृत्य इति उपपदसमासः वा? गतिसमासः एव भवेत्. विना कृत्य इस् नाट् एन् उपपदसमास. कुत्र अस्ति? महाबलेश्वरभट्टानां पुस्तके अस्ति वा? पश्यामि अहं, किन्तु विना कृत्य इति द्रष्टव्यं, कश्चित् विशिष्टं सूत्रमस्ति चेत् दृष्ट्वा वक्ष्यामि. सर्वज्ञः इति साधु वा? आम्, सर्वं जानाति इति सर्वज्ञः. इन्द्रजित्, आम्, इन्द्रं जितवान् इति इन्द्रजित्, तत्रापि उपपदसमासः एव. अरिन्दमः, सः अपि उपपदसमासः. अरीन् दमयति इति अरिन्दमः इति उपपदसमासः, सत्यम्. भाष्यकृत् इत्यस्य स्त्रीलिङ्गं रूपं किम्? भाष्यकृत् इत्येव. तत्र तकारान्तः शब्दः, तत्र भेदः न दृश्यते. भाष्यकृत् इति लिङ्गत्रये अपि भाष्यकृत् इत्येव भवति. अस्तु, अनन्तरं अहं शास्त्रपठने भाष्यद्वारा सरलीकृत्य पठामि. इस् दिस् करेक्ट् यूसेज्? शास्त्रं सरलीकृत्य पठामि इति शुद्धं, सो सिम्प्लिफैङ्ग् द शास्त्र. किन्तु भाष्यद्वारा शास्त्रं सायेण न सरलीभवति, इतोपि क्लिष्टमेव भवति. बिकास् भाष्य बै डिफाल्ट् इस् एक्चुलि मच् मोर् काम्प्लिकेटेड्. किन्तु व्याख्यानद्वारा सरलीकृत्य पठामि इति तु शुद्धम्. भयकृत् इति कस्मिन् लिङ्गे? भयकृत् इति लिङ्गत्रये अपि भयकृत् इत्येव भवति. एतादृशाः कृत् इत्यन्ताः शब्दाः लिङ्गत्रये अपि रूपं समानं भवति. कमलम् इत्यस्य सरोजा इति भवति वा, सरोजम् इति भवति वा? सरोजम् एव. सरसी जायते इति विग्रहः, तत्र कमलशब्दस्य अर्थे तु सरोजम् इत्येव. काचित् श्री सरोजा इत्युक्ते लक्ष्मीः, लक्ष्म्याः एव नाम अस्ति सरोजा इति. सरसि जायते, सापि समुद्रमथनकाले जाता इत्यतः सरोजा इति लक्ष्म्याः नामसु अन्तर्भवति. Do all gati samasas end in lyap? No, not necessarily. As I said, sarali kritam ityapi bhavati. Sarali krataha, sarali krita, sarali kritam ityadi. So, tatra samasah asti iti darshayitum samanyataha lyavantasya udaharanam diyate. Because the lyap clearly indicates the samasa. The lyap comes only because of the samasa. Ataha lyabantasya udaharanam diyate. Anyadapi bhavitum arhati. Saralam karoti ityapi shuddham va? Shuddham. Sarvatra sarali karoti ityeva prayoktavyam iti nasti. Saralam karoti ityapi upayoktum shakyate. Which is the subanta in gati samasa? The uttarapada is a subanta. Whenever you say whether it is a ktva pratyayanta or a krita, all those are subantas. Because all kridantas are subantas. Etattu smartavyam. Kridantanam svatantriyana prayogaha na bhavati. Supratyayaha bhavanti. Ataha sarve kridantaha subantaha bhavantyeva. Okay. Why not bhayankarah? तत्र तु विशिष्यसूत्रमस्ति. ओके, सो दिवाकरः, निशाकरः इत्यादि विशिष्टशब्दाः सन्ति. यत्र कारः इति न भवति, करः इति भवति. ओके, अनुभवात् ज्ञायते अथवा सूत्रेषु अस्ति, विशिष्टसूत्रमस्ति. ओके, एनी अदर् क्वश्चन्स्? भृङ्ग इत्यस्य तैलं भृङ्गराज इति किमपि सस्यमपि स्यात् ओके देन् स्ट्रैक् मी इट्स् पासिबल् ऐ डोण्ट् नो वै इट् इस् काल्ड् भृङ्ग इट् इस् प्रोबब्लि सम् सस्य ओके नेम् आफ् एन् ओषधि हर्ब् विच् इस् काल्ड् भृङ्गराज अस्तु अद्य अत्र समापयामः श्वः रघुवंशं पठिष्यामः धन्यवादाः